द्वितीयं केशवं तथा तृतीयं पद्मनाभं च चतुर्थं वामनं स्मरेत्
पञ्चमं वेदगर्भं तु षष्ठं च मधुसूदनं सप्तमं वासुदेवं च वराहं चाष्टमम्
शोमती